इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। अशीतितमस्य स्वतंत्रता दिवसस्य प्रसंगे कृत्स्नेहि देशे हर घर तिरंगा इत्यभियानं गतिं भजते, यदि अगस्त मासस्य 17 दिनांकं यावत् अनुवर्तयिष्यते। अस्मिन्नेव वर्षे वन्दे मातरं गीतस्य 150वीं जयन्ती पूर्तिः अपि उत्साहं द्विगुणीकरोति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सर्वेभ्यः देशवासिभ्यः विकसित भारतस्य संकल्पेन सह गृहेषु ध्वजम् उत्तोलयितुं सादरं प्रोक्तम्। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः राष्ट्रिय गौरव अपमान निरोधक संशोधन विधेयकं 26/26 इत्यस्मै स्वकीयाम् अनुमतिं दत्तवती। अनेन संशोधनेन राष्ट्रगीतं वन्दे मातरम् इत्येतत् राष्ट्रगानेन जनगणमन इत्यनेन सह समानं वैधानिक संरक्षणं लभते। अधुना अस्य गायने बाधोत्पादनम् अथवा सभायाः विघटनम् विधिकदृष्ट्या दण्डनीयः अपराधो भविष्यति। संसदाधिकरण परिष्कार विधेयकं 26/26 पारितम्। राज्यसभया विधेयकस्यानुमोदनमपि अंगीकृतम्, यत् लोकसभया पूर्वमेव पारितम् आसीत्। विधिन्याय राज्यमन्त्री अर्जुन राम मेघवालः एतद् विधेयकम् उपस्थापितवान्। अस्य विधेयकस्य मुख्यमुद्देश्यं तावत् विविधाधिकरणानाम् अध्यक्षाणां सदस्यानां च अर्हतासु नियुक्तौ सेवानियमेषु तथा अधिकरणानां प्रशासने कार्यप्रणाल्यां च दक्षतां स्वायत्ततां पारदर्शितां एकरूपतां च आनेतुम् अस्ति। चर्चायाः प्रत्युत्तरे सति मेघवालेन प्रोदीरितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्वकारेण 25-2000 वर्षे अधिकरणानां युक्तीकरणस्य प्रक्रिया समारब्धा। मन्त्रिणा प्रोक्तं यत् अस्मिन् नूतन विधेयके राष्ट्रिय अधिकरणायोगस्य स्थापनायाः प्रावधानम् अस्ति, यस्य अध्यक्षता सर्वोच्च न्यायालयस्य पूर्व न्यायाधीशः उत उच्च न्यायालयस्य पूर्व मुख्य न्यायाधीशः करिष्यति। विधेयक पारणात् परं सदने विशेषोल्लेखानां विषयेभ्यः समयः कल्पितः, यस्मिन् विधिक सदस्यैः लोकमहत्वस्य विषयाः उत्थापिताः। कार्यसमाप्त्यनन्तरं पीठासीनाधिकारिण सदनस्य कार्याचरणं श्वः प्रातः 11 यावत् स्थगितम्। लोकसभया केरल नाम परिवर्तनं विधेयकं पारितम्। अस्मिन् विधेयके संविधानस्य प्रथम अनुसूच्यां राज्यस्य केरल इति नाम परिवर्त्य केरलम् इति कर्तुं प्रावधानम् अस्ति। विधेयकस्यास्य विषये भाषमाणः गृहराज्यमन्त्री नित्यानन्दरायः अवोचत् यत् गतवर्षे केरल विधानसभया राज्यस्य नाम केरलम् इति कर्तुं केन्द्रसर्वकाराय अनुरोध प्रस्तावः पारितः आसीत्। तेनोदीरितं यत् मलयालम् भाषायां राज्यस्य नाम केरलम् इति अस्ति, परं संविधाने एतत् केरल इति लिखितमासीत्। राज्यसभया राष्ट्रिय सहकारिता विकास निगम संशोधन विधेयकमपि पारितम्। सहकारिता राज्यमन्त्री मुरलीधर मोहिल इत्यनेन उपस्थापितं विधेयकं निगमस्य गतिविधीन् औद्योगिक पण्येषु अपि विस्तारयितुम् अनुमतिं ददाति। उभे अपि विधेयके नीट विप्रतिपत्तिमधिकृत्य विपक्षस्य कोलाहलमध्ये चर्चां विनैव पारिते। भारतीय ऋतु विज्ञान विभागेन अद्य पूर्व राजस्थान ओडिशा प्रभृति प्रदेशेषु अतिवृष्टेः पूर्वाभासः प्रकटीकृतः। पंजाब उत्तराखण्ड गुजरात क्षेत्रेषु अपि अतिवृष्टिः सम्भाव्यते। आन्ध्रप्रदेश झारखण्ड कर्णाटक प्रदेशेषु विद्युत्पात झंझावाताभ्यां सह अतिवृष्टि परा संचेतना च प्रसारिता। राष्ट्रिय राजधान्यां तावत् देहल्यां सायंकाले मेघाच्छादनेन सह मन्द वृष्टिः सम्भाव्यते इति वार्ताः।